इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा. प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् अचिरम् एव छत्तीसगढ़ समेत्य देशस्य प्रत्येकम् अपि भागः माओवादी हिंसामुक्तः भविष्यति. रायपुरे छत्तीसगढ़ रजत जयन्ती समारोहं सम्बोधयन् प्रधानमन्त्री अवदत् यत् अद्यत्वे छत्तीसगढ़स्य बस्तर सदृशेषु क्षेत्रेषु भयस्य अपेक्षया उत्सवस्य वातावरणम् अस्ति.
मैं लाखों माताओं बहनों को अपने बच्चों के लिए रोते बिलखते नहीं छोड़ सकता. इसलिए हमने भारत को माओवादी आतंक से मुक्ति दिलाने का संकल्प लिया और आज इसके नतीजे देश देख रहा है. और अब सिर्फ 3 जिले बचे हैं जहां माओवादी आतंक का आज भी थोड़ा रुबाब चलाने की कोशिश हो रही है. लेकिन मैं देशवासियों को गारंटी देता हूं वो दिन दूर नहीं जब हमारा छत्तीसगढ़ हमारा हिंदुस्तान माओवादी आतंक से पूरी तरह मुक्त हो जाएगा.
प्रधानमन्त्री गतवासरे छत्तीसगढ़स्य यात्रावधौ नवा रायपुरस्थले छत्तीसगढ़ विधानसभायाः नूतन भवनस्य उद्घाटनम् अकरोत्. अत्रावसरे प्रधानमन्त्री पूर्व प्रधानमन्त्रिणः भारत रत्न विभूषितस्य अटल बिहारी वाजपेयी वर्यस्य अपि प्रतिमायाः अनावरणं कृतवान्. उपस्थितं जनसमूहं सम्बोधयन् प्रधानमन्त्री अवदत् यत् अद्य सम्पूर्ण देशः स्वकीयं न्यासं संरक्ष्य विकासमार्गे अग्रे प्रसरति. सः अवदत् यत् एषः एव भावः केन्द्रीय सर्वकारस्य प्रत्येकस्मिन् निर्णये नीतौ च दृश्यते. प्रधानमन्त्री अवदत् यत् भारतस्य एषः दृष्टिकोणः छत्तीसगढ़ विधानसभायाः नूतन भवने स्पष्टतया द्रष्टुं शक्यते येन राज्यस्य समृद्ध सांस्कृतिक परम्परा प्रदर्श्यते. राष्ट्रपतिः द्रौपदी मुर्मुः अद्य प्रभृति उत्तराखण्डस्य त्रिदिवसीय यात्रायां भविष्यति. अद्य राष्ट्रपतिः हरिद्वारस्थे पतञ्जलि विश्वविद्यालयस्य द्वितीये दीक्षांत समारोहे उपस्थिता भविष्यति. सोमवासरे उत्तराखण्ड राज्यस्य रजत जयन्त्याः अवसरे देहरादूने उत्तराखण्ड विधानसभां सम्बोधयिष्यति. प्रसार भारती संस्कृति मन्त्रालयस्य सहयोगेन अद्य आकाशवाणी संगीत सम्मेलनस्य 67वें संस्करणस्य शुभारम्भं करिष्यति. एतत् सम्मेलनम् अस्य मासस्य 29 दिनांकं यावत् देशस्य 24 केन्द्रेषु प्रवर्तिष्यति. सूचना प्रसारण मन्त्रालयेन उक्तं यत् आकाशवाणी संगीत सम्मेलनं भारतस्य प्रख्यात सांस्कृतिक परम्परायाः प्रतीकरूपम् अस्ति. अत्र देशस्य श्रोतृभ्यः हिन्दुस्तानी कर्णाटक लोक संगीतानुभवं प्राप्तुम् अवसरः प्राप्यते. प्रसारभारत्याः मुख्य कार्यकारीधिकारी गौरव द्विवेदी सम्मेलनस्य विषये विस्तृत विवरणं प्रदाय प्रावोचत् यत् कोविड महारोगस्य विरामस्य अनन्तरम् अयं महोत्सवः नूतन रूपेण पुनः समक्षम् आगच्छति. प्रिया श्रोतारः संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः अद्य मध्याह्ने 12:30 भविष्यति. भवन्तः सर्वे यथाकालं श्रोतुं प्रभवन्ति. अन्ते क्रिकेट क्रीडायां महिलानां एकदिवसीय क्रिकेट विश्व चषक स्पर्धा मालिकायाः निर्णायके द्वन्द्वे भारतम् अद्य दक्षिणाफ्रीकादलं सम्मुखीकरिष्यति. एषा स्पर्धा नव मुम्बय्यां DY पाटिल क्रीडांगणे अपराह्णे 3 आरप्स्यते. इतः पूर्वम् उपान्त्य चक्रीये द्वन्द्वे भारतेन ऑस्ट्रेलिया दलं 5 क्रीडकैः पराजितम् इति वार्ताः.